ओम नमो भगवते वासुदेवाय। अथाष्टाशीतितमोऽध्यायः। राजोवाच देवासुरमनुष्येषु ये भजन्त्य शिवं शिवं प्रायस्ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम्। एतद्वेदितुमिच्छामः सन्देहोऽत्र महान् हीनः। विरुद्धशीलयोः प्रभोर्विरुद्धा भजतां गतिः। श्रीशुक उवाच शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा। ततो विकारा अभवन् षोडशामीषु कञ्चन उपधावन् विभूतीनां सर्वासामश्नुते गतिम्। हरिर्हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः। स सर्वदृगुपद्रष्टा तं भजन् निर्गुणो भवेत्। निवृत्तेष्वश्वमेधेषु राजा युष्मत्पितामहः। शृण्वन् भगवतो धर्म न पृच्छदिदमच्युतम्। स आह भगवांस्तस्मै प्रीतः शुश्रूषवे प्रभुः। नृणां निःश्रेयसार्थाय योऽवतीर्णो यतोः कुले। श्रीभगवान् उवाच यस्याहमनुगृह्णामि हरिष्ये तद्धनं शनैः। ततो धनं त्यजन्त्यस्य स्वजना दुःखदुःखितम्। स यदा वितथोद्योगो निर्विण्णः स्याद्धने हया। मत्परैकृतमैत्रस्य करिष्ये मदनुग्रहम्। तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम्। अतो मां सुदुराराध्यं हित्वान्यान् भजते जनः। ततस्ताशुतोषेभ्यो लब्धराज्यश्रियोद्धताः। मत्ताः प्रमत्ता वरदान् विस्मरन्त्यवजानते। श्रीशुक उवाच शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः। सद्यः शापप्रसादोऽङ्ग शिवो ब्रह्म न चाच्युतः। अत्र चोदाहरन्तीममितिहासं पुरातनम्। वृकासुराय गिरिशो वरं दत्त्वापसङ्कटम्। वृको नामासुरः पुत्रः शकुनेः पथि नारदम्। दृष्ट्वा सुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः। स आह देवं गिरिशमुपाधावाशु सिध्यसि। योऽल्पाभ्यां गुणदोषाभ्यामाशु तुष्यति कुप्यति। दशास्य बाणयोस्तुष्टः सुवतोर्वन्दिनोरिव। ऐश्वर्यमतुलं दत्त्वा ततापसु सङ्कटम्। इत्यादिष्टस्तमसुर उपाधावत्स्वगात्रतः। केदारात्मक्रव्येण जुह्वानोऽग्निमुखं हरं देवोपलब्धिमप्राप्य निर्वेदात् सप्तमेहनि। शिरोवृश्चत् स्वधितिना तत्तीर्थक्लिन्नमूर्धजम्। तदा महाकारुणिकस्य धूर्जटिर्यथा वयं चाग्निरिवोत्थितो नलात्। निगृह्य दौर्भ्यां भुजयोर्न्यवारयत् तत्स्पर्शनाद्भूय उपस्कृता कृतिः। तमाह चाङ्गालमलं वृणीष्व मे यथाभिकामं वितरामि ते वरम्। प्रिये यतो येन नृणां प्रपद्यता महो त्वयात्मा भृशमर्जते वृथा। देवं स वव्रे पापीयान् वरं भूतभयावहम्। यस्य यस्य करं शीर्ष्णी धास्ये सम्रियतामिति। तच्छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत ओमिति प्रहसंस्तस्मै ददेहेरमृतं यथा। इत्युक्तः सोऽसुरो नूनं गौरीहरणलालसः। स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्निखिलासुरः। स्वहस्तं धातुमारेभे सोऽबिभ्यत् स्वकृताच्छिवः। तेनोपसृष्टः सन्त्रस्तः पराधावन् सवे पतुः। यावदन्तं दिवो भूमे काष्ठानामुदगादुदक् अजानन्तः प्रतिविधिं तूष्णीमासन् सुरेश्वराः। ततो वैकुण्ठमगमत् भास्वरं तमसः परम्। यत्र नारायणः साक्षान्यासिनां परमागतिः। शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः। तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः। दूरात् प्रत्युदयात् भूत्वा वटुको योगमायया मेखलाजिनदण्डाक्षैस्तेजसाग्निरिवज्ज्वलन् अभिवादयामास च तं कुशपाणिर्विनीतवत्। श्रीभगवानुवाच शाकुनेय भवान् व्यक्तं शान्तः किं दूरमागतः। क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक्। यदि न श्रवणायालं युष्मद्व्यवसितं विभो भण्यतां प्रायशः पुंभिर्धृतैः स्वार्थान् समीहते। श्रीशुक उवाच एवं भगवता पृष्टो वचसा अमृतवर्षिणा। गतक्लमो ब्रवीत् तस्मै यथा पूर्वमनुष्ठितम्। श्रीभगवानुवाच एवं चेत् तर्हि तद्वाक्यं न वयं श्रद्दधीमहि। यो दक्षशापात् पैशाच्यं प्राप्तः प्रेतपिशाचराट्। यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ पर्यङ्गासु स्वशिरसि हस्तम् यस्य प्रतीयताम् यद्यसत्यम् वच शम्भो कथञ्चिद्दानवर्षभ तदैनम् जह्यसद्वाचम् न यद्वक्ता नृतम् पुनः इत्थम् भगवतश्चित्रैर्वचोभिः ससुपेशलैः भिन्नधीर्विस्मृतशीर्षिणि स्वहस्तम् कुमतिर्व्यधात् अथापतद्भिन्नशिरा वज्राहत इव क्षणात् जयशब्दो नमः शब्दः साधुशब्दो भवद्दिवि मुमुतुः पुष्पवर्षाणि हते पापे वृकासुरे देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच्छिवः मुक्तम् गिरिशमभ्याः भगवान् पुरुषोत्तमः अहो देव महादेव पापोऽयम् स्वेन पाप्मना हत को नु महत्स्वीष जन्तुर्वै कृतकिल्बिषः क्षेमी स्यात् किमु विश्वेशे कृतागत्को जगद्गुरौ य एवमव्याकृतशक्त्युदन्वतः परस्य साक्षात् परमात्मनो हरेः गिरित्रमोक्षम् कथयेच्छृणोति वा विमुच्यते संसृतिभिस्तथारिभिः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे रुद्रमोक्षणम् नामाष्टाशीतितमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।